अखण्डमण्डलाकारम् व्याप्तमेन चराचरम् तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः।
अज्ञानतिमिरान्तस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः।
गुरुब्रह्मा गुरुर्विष्णुः गुरुदेवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः।
यत्किञ्चित् सचराचरम् तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः।
चिन्मयं व्यापि यत् सर्वं त्रैलोक्यं सचराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः।
सर्वश्रुतिशिरोरत्न विराजित पदाम्भुजा वेदान्ताम्बुजसूर्यो यः तस्मै श्रीगुरवे नमः।
चैतन्य शाश्वत शान्तो व्योमातीतो निरञ्जनः बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः।
ज्ञानशक्तिसमारूढः तत्त्वमाला विभूषितः भुक्तिमुक्ति प्रदाता च तस्मै श्री गुरवे नमः।
अनेक जन्म संप्राप्ता कर्मबंध विदाहिने आत्मज्ञान प्रदानेन तस्मै श्री गुरवे नमः।
शोषणं भवसिन्धोश्च ज्ञापनं सारसंपदः गुरोर्पादोदकं सम्यक् तस्मै श्री गुरवे नमः।
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः तत्त्वज्ञानात् परं नास्ति तस्मै श्री गुरवे नमः।
मन्नाथ श्रीजगन्नाथः मद्गुरु श्रीजगद्गुरुः मदात्म सर्वभूतात्मा तस्मै श्रीगुरवे नमः।
गुरोः परतरं नास्ति तस्मै श्री गुरवे नमः।
Yeah.